एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् प्रधानमन्त्री केपी शर्मा ओली ह्यो नेपाल सर्वकारस्य गतार्थिक वर्षस्य वार्षिक प्रतिवेदनम् प्रस्तौत। नेपालस्य संविधाने विहितायाः व्यवस्थायाः अनुसारेण राष्ट्रपतेः समक्षम् प्रधानमन्त्रिणा ओलिना प्रतिवेदनमेतत् अर्पितमस्ति। नेपालस्य संविधानस्य चतुर्थे भागे उल्लिखितानाम् राज्यस्य निर्देशक सिद्धान्तस्य नीतिदायित्वयोः क्रियान्वयनस्य च सम्बन्धे विहितानाम् कार्याणाम् प्राप्तोपलब्धिसम्बद्धायाः त्रिपञ्चाशत्तम धारायाश्च प्रतिवेदनम् नेपाल सर्वकारेण विहितानाम् प्रमुख कार्याणाम् विवरणम् च प्रतिवेदने समाविष्टे स्तः। एवमेव प्रधानमन्त्री ओली राष्ट्रिय सुरक्षा परिषदः अध्यक्षस्य रूपेण नेपालस्य संविधानस्य अनुसारेण परिषदः वार्षिक प्रतिवेदनमपि प्रस्तौत। तदवसरे गृहमन्त्री रामबहादुर थापा, अर्थमन्त्री विष्णुप्रसाद पौडेलः, परराष्ट्रमन्त्री प्रद्युत कुमार ग्यावाली, नेपाल सर्वकारस्य उच्चपदस्थाः अधिकारिणश्च सहभागिनः आसन्। राष्ट्रपतिना विद्यादेवी भण्डारिणा स्विस महासंघस्य राष्ट्रपतेः कार्यभार वहनम् आलक्ष्य गी पार्मेलिन इत्यस्मै वर्धापनम् ज्ञापितम् वर्तते। राष्ट्रपतेः भण्डारी स्वस्य स्विस समकक्षिणे ह्यः सन्देशम् प्रेषयित्वा वर्धापनम् ज्ञापितवती। सन्देशे राष्ट्रपतेः भण्डारी षट्पञ्चाशदधिकैकोनविंशतिशततमे ख्रीष्टाब्दे नेपाल स्विट्जरल्याण्ड देशयोर्मध्ये कूटनीतिक सम्बन्धस्य स्थापनातः अद्यावधि देशद्वयस्य मध्ये निकटस्थः आर्थिकश्च सम्बन्धो स्थिति चर्चयन्ती नेपालस्य विकास प्रयासे स्विट्जरल्याण्ड देशात् प्राप्त सहयोगम् प्राशंसत्। राष्ट्रिय सभायाः ह्यस्तनोपवेशे सांसदैः प्रतिनिधि सभायाः विघटनस्य तदनन्तरम् उत्पन्न परिस्थित्या सृष्टस्य दौविध्यस्य च विषयाः उत्थापिताः। उपवेशे सांसदः वामदेव गौतमः दले वाद विवादस्य सहमतेः असहमतेश्च उद्भवनम् स्वाभाविकम् अस्तीति चर्चयन् अनेन कारणेन प्रतिनिधि सभायाः विघटनेन देशः अत्यन्त कठिनायाम् परिस्थितौ प्राप्तो स्थिति अभासत। असौ अवदत् प्रतिनिधि सभायाः विघटनस्य विषयः न्यायालये विचार्यमाणो स्थिति अवस्थायाम् विषयेऽस्मिन् टिप्पणीकरणम् उपयुक्तम् न भवति। उपवेशे प्रतिपक्षिदलस्य सांसदाः प्रतिनिधि सभायाः विघटनेन देशः संकटम् प्रति उन्मुखो भूत् इति वितर्क्य विरोधम् कृतवन्तः। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः विधि न्याय संसदीय विषय मन्त्री लीलानाथ श्रेष्ठः मदस्यायोगस्य गतार्थिक वर्षीयम् प्रतिवेदनम् प्रस्तौत। एवमेव राष्ट्रिय सभाया ह्यस्तनोपवेशेन सांसदः वामदेव गौतमः राष्ट्रिय सभाया स्थिर विकास सुशासन समितौ मनोनीतो वर्तते। राष्ट्रिय सभाया अपरोपवेश अद्य दिवा एकवादने पुनर्वसति। उपप्रधानमन्त्री ईश्वर पोखरेलः वदति आगामिने वैशाख मासाय उद्घोषिते मध्यावधि निर्वाचने मिलित्वा प्रतिस्पर्धायाम् विहितायाम् सत्याम् सर्वाः समस्याः समाधास्यन्ते। सिन्धुपाल्चोक जनपदस्य खाडीचौर स्थाने ह्य आयोजितम् नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य कार्यकर्तृमेलनम् सम्बोधयन् उपप्रधानमन्त्री पोखरेलः नवीन जनादेशाय प्रारब्धा प्रक्रिया यथावत् चलतीति बोधयन् वैधानिकरूपेण प्रतिनिधिसभा विघटितेति व्यतर्कयत्। कार्यक्रमे क्रीडा मन्त्री दावा लामा वैशाख मासे सम्पत्स्यमाने निर्वाचने सहभागिनो भवितुम् सर्वान् अनुरुणत। कोरोना विषाणो संक्रमणात् नेपाले ह्यस्तनावधि प्रतिशतम् 0.74 जनैः स्वास्थ्य लाभः प्राप्तो वर्तते। ह्यत्र्यशीत्यधिक शतचतुष्टयेन जनैः स्वास्थ्यलाभ प्राप्तेः अनन्तरम् ह्यस्तनावधि संक्रमणात् मुक्तानाम् जनानाम् समग्र संख्या 2,650,744.67 प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। ह्य अतिरिक्तेषु 12,174 जनेषु कोरोना संक्रमणम् पुष्टीभूतमस्ति। आहाराष्ट्रम् 5,53% च निदर्शनानाम् पीसीआर विधिना परीक्षणे विहिते ह्य 30.2% पुरूषेषु 82.1% महिलासु च संक्रमणम् पुष्टीभूतम् वर्तते। ह्यस्तनावधि आराष्ट्रम् 85.5% सक्रिय संक्रान्ताः जनाः सन्ति। कोरोना संक्रमणेन ह्य अतिरिक्तम् जनचतुष्टयम् मृतम्। एतदनु संक्रमणेन मृतानाम् जनानाम् ह्यस्तनावधि समग्र संख्या 1,003.9% प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। नेपाल विद्युत प्राधिकरणेन काष्ठमण्डप उपत्यकया सहितेषु देशस्य केष्वपि स्थानेषु घोषितेन अघोषितेन वा रूपेण विद्युत भार न्यूनीकरणम् भूतम् नास्तीति स्पष्टीकृतम् वर्तते। प्राधिकरणेन प्राविधिक समस्यायाः कारणेन क्षणमात्रम् कतिचित् घण्टासु वा कुत्रापि कुतोऽपि विद्युत् आपूर्तौ विच्छिन्नायम् सत्यमपि तत् विद्युद्भार न्यूनीकरणस्य रूपेण न बोद्धुम् अनुरुद्धमस्ति। उपभोक्तृभ्यः गुणस्तरीयायाः विश्वसनीयायाः पर्याप्तायाश्च विद्युतः आपूर्तये प्रसारण वितरण प्रणाल्याः प्रणाली संयोजनोपकेन्द्राणां च सुदृढीकरणार्थं विहितेन कार्येण क्षणे क्षणे विद्युदापूर्त्यवरोधिनी समस्या न्यूनायमानास्तीति प्राधिकरणं निश्चिनोति। प्राधिकरणस्य कार्यवाहक कार्यकारी निर्देशक हितेन्द्रदेवशाक्यः प्रणाल्यां पर्याप्ता विद्युदस्तीति ज्ञापयन् यथासम्भवं शीघ्रं विद्युदापूर्तिं नियमितां विधातुं प्राधिकरणं क्रियाशीलम् अस्तीति अवोचत्। कञ्चनपुरस्य बेलौरी नगरपालिकायाः दशमवडा क्षेत्रस्य नेपाल भारतयोः दशगजा सीमा क्षेत्रात् नेपालीभिः भारतीय सीमा सुरक्षा बलस्य सुरक्षा केन्द्रम् अपसारितम् वर्तते। गत बुधवासरे ज्ञापनेन विना दशगजा क्षेत्रे भारतीय सीमा सुरक्षा बलेन निर्मितम् सुरक्षा केन्द्रम् स्थानीय नेपालीभिः अपसारितमस्ति। नेपाल प्रहरिणः सशस्त्र प्रहरिणः स्थानीयानाञ्च नेतृत्वे सुरक्षा केन्द्रस्य अपसारण कार्यम् विहितमिति कञ्चनपुर जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः अमरबहादुर थापा अज्ञापयत्। संघीय विषय सामान्य प्रशासन मन्त्री गणेश सिंह ठगुन्ना कथयति राष्ट्रं विकास समृद्ध्योः अभियाने अग्रेवर्धमानम् आस्ते। ह्यो धनगढ़ी स्थाने पूर्वाधार विकासा योजना कार्यालयम् उद्घाटयन् मन्त्री ठगुन्ना उच्चैर मनोबलेन कार्याणि कर्तुं कर्मचारिणो निरदिशत।